श्री परमात्मने नमः। अथ नवमोऽध्यायः। श्रीभगवानुवाच, इदं तु ते गुह्यतमम् प्रवक्ष्याम्यनसूयवे ज्ञानम् विज्ञानसहितम् यज्ज्ञात्वा मोक्षसे शुभात्। राजविद्या राजगुह्यम् पवित्रमिदमुत्तमम् प्रत्यक्षावगमम् धर्म्यम् सुसुखम् कर्तुमव्ययम्। अश्रद्धधाना पुरुषा धर्मस्यास्य परन्तप अप्राप्य माम् निवर्तन्ते मृत्युसंसारवर्त्मनि। मया ततमिदम् सर्वम् जगदव्यक्तमूर्तिना मत्स्थानि सर्वभूतानि न चाहम् तेष्वस्थित न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्। भूतभिन्न च भूतस्थो ममात्मा यथाकाशस्थितो नित्यम्
सर्वत्र महान्
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय। सर्वभूतानि कौन्तेय प्रकृतिम् यान्ति मामिकम् कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्। प्रकृतिम् स्वामवष्टव्य विसृजामि पुनः पुनः भूतग्राममिमम् कृत्स्नमवशम् प्रकृतेर्वशात्। न च माम् तानि कर्माणि निबध्नन्ति धनञ्जय। उदासीनमदासीनमसक्तम् तेषु कर्मसु मयाध्यक्षेण प्रकृतिः श्रूयते सचराचरम्। हेतुनानेन कौन्तेय जगद्विपरिवर्तते अवजानन्ति माम् मूढा मानुषीम् तनुमाश्रितम्। परम् भावमजानन्तो मम भूतमहेश्वरम् मोघाशामोघकर्माणो मोघज्ञानाविचेतस। राक्षसीमासुरीम् चैव प्रकृतिम् मोहिनीम् श्रिताः। महात्मानस्तु माम् पार्थ देवी
प्रकृतिमाश्रितः।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् सततम् कीर्तयन्तो माम् यतन्तश्च ऋणव्रताः। नमस्यन्तश्च माम् भक्त्या नित्ययुक्ता उपासते। ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते। एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम् अहम् क्रतुरहम् यज्ञ स्वदाहमहमौषधम्। मन्त्रोऽहममेवाज्य मामग्निरहमुतम् पिताहमस्य जगतो माता धाता पितामह।
वेद्यम् पवित्रमोङ्कार ऋक्साम यजुरेव च गरीर्भर्ता प्रभुः साक्षी निवास शरणम् सुहृत्।
प्रभव प्रलयस्थानम् निधानम् बीजमव्ययम्। तपाम्यहमहम् वर्षम् निगृह्णाम्युत्सृजामि च अमृतम् चैव मृत्युश्च सदसच्चाहमर्जुन। त्रैविद्या माम् सोमपापूतपापायज्ञैरिष्ट्वा स्वर्गतिम् प्रार्थयन्ते ते पुण्यमहसाद्य सुरेन्द्रलोकामश्नन्ति दिव्यान् दिविदेवभोग। ते तम् भुक्त्वा स्वर्गलोकम् विशालम् क्षीणे पुण्ये मर्त्यलोकम् विशन्ति। एवम् त्रयी धर्ममनुप्रपन्ना गता गतम् कामकामा लभन्ते। अनन्याश्चिन्तयन्तो माम् ये जना पर्युपासते तेषाम् नित्याभियुक्तानाम् योगक्षेमम् वहाम्यहम्। येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्। अहम् हि सर्वयज्ञानाम् भोक्ता च प्रभुरेव च। न तु मामपि जानन्ति तत्त्वेनातश्च वन्दिते। यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रतः।
भूतानि
यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्। पत्रम् पुष्पम् फलम् तोऽयम् यो मे भक्त्या प्रयच्छति तदहम् भक्त्युपरिगमश्नामि प्रयतात्मनः। यत्करोषि दश्नासि यज्जुहोषि ददासि यत् यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्। शुभाशुभफलैरेवम् मोक्षसे
बन्धने
सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपेष्यसि। समोऽहम् सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः। ये भजन्ति तु माम् भक्त्या मयि ते तेषु चाप्यहम्। अपि चेषु दुराचारो भजते मामनन्यभाग् साधुरेव समन्तव्य सम्यग्व्यवसितो हि स। क्षिप्रम् भवति धर्मात्मा सस्वच्छान्तिम् निगच्छति। कौन्तेय प्रतिदानीहि न मे भक्तः प्रणश्यति। मामि पार्थव्यपाश्रित्य येऽपि स्युपापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्। किम् पुनर्ब्राह्मणः पुण्या भक्ता राजर्षयस्तथा। अनित्यमसुखम् लोकमिमम् प्राप्य भजस्व माम्। मन्मनाभव मद्भक्तो मद्यादि माम् नमस्कुरु। मामेवैशेषे युक्त्वैव मात्मानं मत्परायणः आत्मानं मत्परायणः। ओम तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे
श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः।